एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सवृष्टि दुरापन्नाभ्याम् जलविप्लव भूस्खलनाभ्याम् पाँच थर ताप्लेजुङ संखुवा सभा जनपदेषु त्रयो मृताः एकोनत्रिंशत् जना विलुप्ताश्च सन्ति। जलविप्लवेन पाँच थर ताप्लेजुङ संखुवा सभा जनपदेषु प्रति जनपदम् एकः पुरूषः मृत, पाँच थर जनपदे पञ्च, संखुवा सभा जनपदे एकोनविंशतिः, ताप्लेजुङ जनपदे च त्रयो जना विलुप्ताः इति नेपाल प्रहरीणा ज्ञापितम् वर्तते। त्रयाणाम् जनपदानाम् एकादश गृहाणि, त्रयोदश परिवाराः नवपशवश्च क्षतिम् प्राप्नुवन्। सप्तानाम् स्थानानाम् मार्गाश्च अवरुद्धाः इति नेपाल प्रहरीणः प्रवक्ता प्रहरीणा एव महानिरीक्षकः कुबेर कडायत अवोचत। प्रवक्ता कडायत विलुप्तानाम् जनानाम् अन्वेषण कार्यम् सञ्चलदस्तीति च असूचयत। पाँचथर जनपदस्य फालेलुङ ग्रामपालिकायाः तृतीयवडा क्षेत्रे भूस्खलनेन गृहेण पूरिताः नववर्षीया बालिका नुसा सावदेन उद्धारानन्तरम् उपचारस्य क्रमे मृतेति प्रहरी ज्ञापयति। इलाम् प्रवृत्ति जनपदेषु च भूस्खलनेन जनजीवनम् प्रभावितम् सम्भूतमस्थिति प्रहरीणा एव महानिरीक्षकः कडायत ज्ञापितवान्। अत्रान्तरे संखुवा सभा जनपदे विलुप्तानाम् एकविंशतिः जनानाम् मध्ये सप्तदश जनाः तत्रत्यायाः सुपर हेवाखोला जलविद्युदायोजनायाः कर्मचारिणः, अन्य चत्वारश्च सर्वसाधारणजनाः सन्तीति प्रमुख जनपदाधिकारी शिवकुमार कार्की सूचयति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः संखुवा सभा ताप्लेजुङ पाँचथर प्रवृत्ति जनपदेषु जलविप्लव भूस्खलनाभ्याम् विलुप्तानाम् नागरिकाणाम् अन्वेषणोद्धार सहायता कार्येषु सक्रियतापूर्वकम् सन्नद्धाः भवितुम् निर्दिशति। असौ जलविप्लवेन प्रभावितानाम् जनानाम् उद्धार कार्ये सक्रियाः भवितुम् सुरक्षाकर्मिणः कर्मचारिणश्च निर्दिशन् एतस्मिन् अभियाने सहयोगम् प्रापयितुम् अशेष जनसमुदायम् अनुरुणत्। प्रधानमन्त्रिणा दाहालेन जलविप्लव भूस्खलनयोः कारणेन भूताम् जनधनयो क्षतिम् प्रति दुःखम् व्यक्तम् वर्तते। उपप्रधान गृहमन्त्री नारायणकाली श्रेष्ठः देशस्य पूर्वभागस्थेषु विभिन्न जनपदेषु जलविप्लवयोः कारणेन जनानाम् मृत्योः विलुप्तेश्च घटनाः घटिताः सन्ति। विपुलमात्रायाम् भौतिक क्षतिश्च सम्भूतेति कारणेन विलुप्तान् जनान् अन्विष्य आहतानाम् जनानाम् उपचार सहयोगयोः प्रभावितानाम् उचित व्यवस्थापने च सर्वविध प्रयासान् विधातुम् निर्दिशति। पाँचथर संखुवा सभा प्रवृत्तिषु जनपदेषु अधिक वृष्टेः अनन्तरम् दुरापन्नयोः जलविप्लव भूस्खलनयोः कारणेन विपुल मात्रायम् धनजनयो भूतायाः क्षतेः पश्चात् ह्यः एव आपत्कालिकोपवेशमुपविश्य गृहमन्त्रिणा श्रेष्ठेन एवम् निर्दिष्टम् वर्तते। गृहमन्त्रिणः निर्देशनस्य पश्चादपि ह्यः एव मेची राजमार्गस्य हेवाखोलिकायाः सेतोः प्रवाहणात् अस्थायी सेतुम् निर्माय यातायात सेवाम् सहजाम् विधातुम् निर्दिष्टमस्ति। अधुनावधि प्राप्तस्य विवरणस्य अनुसारेण तत्र स्थले जनत्रयम् मृतम्, ऊनत्रिंशत् जनाः विलुप्ताश्च वर्तन्ते। कतिचित् सेतवः प्रवाहिताः सन्ति। आसन दश संख्यकेषु सेतुषु क्षति प्रापितास्ति। कतिचित् गृहाणि प्रवाहितानि च वर्तन्ते। नेपाली कांग्रेस दलेन संखुवा सभा ताप्लेजुङ पाँचथर सहितेषु जनपदेषु आकस्मिक रूपेण अविरल वर्षाणाम् पश्चात् दुरापन्नै जलविप्लव भूस्खलन जल निमज्जनैः भूताम् कतिचित् व्यक्तिनाम् मृत्योः भौतिक सम्पत्तेः विपुल क्षतेश्च घटनाम् प्रति दुःखम् व्यक्तम् वर्तते। कांग्रेस दलेन ह्यो विज्ञप्तिर्माध्यमेन जलविप्लव भूस्खलनाभ्याम् प्रभावितानाम् जनानाम् अन्वेषणोद्धार सहायता कर्मसु सक्रियाः भवितुमपि अनुरोधम् वर्तते। प्रभावित क्षेत्रेषु उद्धार सम्वहन सम्प्रेष्य अतिरिक्तायाः मानवीय भौतिक क्षतेः रोदनाय स्तरत्रयस्यैव सर्वकारैः आवश्यक समन्वयेन व्यवस्थित योजनया च कार्यम् विधातुम् कांग्रेस दलेन बलम् दत्तमस्ति। सम्पर्कविहीनानाम् जनानाम् अन्वेषणम् तीव्रीकर्तुम्, पीडित परिवारेभ्यः सहायताम् प्रदातुम्, आवासस्य आहतानाम् जनानाम् अशेषोपचारस्य च व्यवस्थाम् विधातुम् च कांग्रेस दलेन सर्वकारः अभियाचितो वर्तते। कांग्रेस दलेन आहतानाम् जनानाम् शीघ्रम् स्वास्थ्य लाभस्य कामना च विहितास्ति। एवमेव राष्ट्रिय प्रजातन्त्र दलेनापि देशस्य पूर्वभागीय पर्वतीय क्षेत्रेषु सम्प्रत्येव दुरापन्नाभ्याम् जलविप्लव भूस्खलनाभ्याम् मृतान् जनान् प्रति श्रद्धाञ्जलिः व्यक्तो वर्तते। दलाध्यक्षस्य राजेन्द्र लिङ्गदेन इत्यस्य अध्यक्षतायाम् पूर्वेद्युः उपविष्टः पदाधिकारिणाम् उपवेशः आहतानाम् जनानाम् शीघ्रम् स्वास्थ्यलाभम् प्रकाम्य तेभ्यः सोद्धारम् आवश्यक सहयोग सहाय्य वस्तूनि प्रदातुम् अभ्ययाचत इति दलप्रवक्ता मोहन श्रेष्ठः असूचयत्। प्रतिनिधि सभाया ह्यस्तनोपवेश एतद् विक्रम वर्षीयस्य विनियोजन विधेयकस्य विभिन्न मन्त्रालय गतानि विभिन्नानि शीर्षकाणि आश्रित्य विमृष्टमस्ति। उपवेशे एतद् विक्रम वर्षीय विनियोजन विधेयकस्य अन्तर्गतं संघीय विषय सामान्य प्रशासन मन्त्रालयस्य स्वास्थ्य जनसंख्या मन्त्रालयस्य च विभिन्नानि शीर्षकाणि आश्रित्य विमृष्टमस्ति। तत्पूर्वम् उपवेशे सांसदेन महेश कुमार बर्तौला इत्यनेन संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयस्य आयव्यय विवरणस्य शीर्षके प्रदेशानां नामानि नोल्लिखितानीति निगद्य आपत्ति प्रकटनस्य पश्चात् सभामुख देवराज घिमिरे ह्यस्तनोपवेशस्य कार्यसूच्यां संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयस्य शीर्षकगत विमर्शनं कार्यसूचित अपाकृतमस्तीति ज्ञापितवान् आसीत्। प्रतिनिधि सभाया ह्यस्तनोपवेशस्य प्रारम्भे भाषमाणाः सांसदाः देशस्य पूर्वभागस्थेषु पर्वतीय जनपदेषु दूरापन्नाभ्याम् जलविप्लव भूस्खलनाभ्याम् पीडितेभ्यो नागरिकेभ्य तत्कालं सहयोगोद्धार क्षतिपूर्तिनां व्यवस्थां विधातुम् अयाचन्त। सांसदाः विपदा जायमानायाः क्षतेः यथार्थ विवरणस्य उद्धार कार्यस्य प्रगतेश्च विषयौ संसदं ज्ञापयितुम् अपि सर्वकारस्य ध्यानाकर्षणं व्यदधुः। आकस्मिक समये सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला पूर्वभागस्थ पर्वतीय जनपदेषु जलविप्लव भूस्खलनयोः कारणेन 50 कोटिभ्यः अपि अधिक रूप्यकाणां भौतिक पूर्वाधाराणां क्षतिः सम्भूतेति ज्ञापितवान्। प्रतिनिधिसभायाः अपर उपवेश अद्य पूर्वाह्नस्य 11 वसति। नेकपा माओवादी केन्द्र नेकपा एकीकृत समाजवादी जनता समाजवादी दलैः नेत्र विक्रम चन्दस्य नेतृत्वस्य नेपाल कम्युनिष्ट पार्टीति दलेन च सहितैः चतुर्विः दलैः मिलित्वा उद्घोष्यमाणया समाजवादी संयुत्या संयुक्त विषय लक्ष्याणि निर्णीतानि सन्ति। ह्य उपविष्टेन चतुर्णां दलानाम् उपवेशेन अद्य उद्घोष्यमाणाया समाजवादी संयुतेः संयुक्त विषय लक्ष्योद्देश्य प्राथमिकताभिसहिता प्रतिबद्धता निर्धारितेति नेकपा एकीकृत समाजवादिनः प्रवक्ता जगन्नाथ खतिवडा अवदत। संयुतौ सहभागिनां सदस्य दलानाम् अध्यक्षैः सहिता संयोजन समिति भविष्यति। यया आवश्यकतायाः अनुसारेण उपसमितिः संघटय्य अन्यानि दलान्यपि सहभागिनी विधातुं निर्णीतमिति ज्ञापितं वर्तते। इति समाचाराः।